देवी महात्म्य स्तोत्र लक्ष्मीशे योग निद्रां प्रभजति भुजगाधीश तल्पे सदर्पो उत्पन्नौ दानवौ तक्ष्रवण मंगलयांगौ मधुं गैडभं च हष्ट्वा भीतस्य धातुः स्तुतिभिर्भीनुतां आशुतो नाशयन्तीं दुर्गां देवीं प्रपदये शरणमहमशेषापतुलमूलनाय युद्धे निर्जित्य दैत्यस्त्री भुवनमखिलं यस्तदीयेषु धिष्ढिये स्वास्थाय स्वान विधेयान स्वयमगमदसो शक्रतां विक्रमेण तं समाप्त्याप्तमित्रं महषिमपि निहत्यास्य मूर्धाधिरूढां दुर्गां विश्वोत्पत्ति प्रणास स्थिति विहृति परे देवी भो रामरारि त्रासात त्रातं कुलं नः पुनरपि च अविभूर्याः पुस्तादिति चरण नमत सर्व गीर्वाणवर्गां दुर्गां हन्तुं शुंभं निशुंभं त्रिदश गणनुतां हेमडोलां हिमाद्रौ आरुढां व्यूढदर्पाणयुधि निहतवतीं धूम्रकचण्डमुण्डान् चामुण्डाख्यां दधानाम् उपशमित महारक्तबीजोपसर्गां दुर्गां ब्रह्मेश स्कंद नारायण किटी नरसिंहेन्द्र शक्ति स्वभृत्याः कृत्वा हत्वा निशुंभं जीत विबुधगणं त्रासिताशेषलोकम् एकीभूयाथ शुंभं रडशिरसि निहत्या स्थितां अत्खण्डगां दुर्गां उत्पन्नानन्दजेति स्वयमवनीतले शुंभमन्यं निशुंभं भ्रामरयाख्यारुढाख्यं पुनरपि जननी दुर्गमाख्यं निहन्तुं भीमाशाकम्भरीति त्रुटित रिपुभटां रक्तदन्तेति जातां दुर्गां त्रैगुण्यानां गुणानाम् अनुसरण कलाकेली नानावतारैः त्रैलोक्य त्राणशीलां वनिवग्निलीलां सलीलां देवीं सच्चिन्मयीं तां वितरीत विनमत सत्रिवर्गापवर्गां दुर्गां सिंहारूढां त्रिनेत्रां कर्तलं विलसच्छंख चक्रासिरम्यां भक्ताभीष्टपदात्रीं रिपुमथनकरीं सर्वलोकैकवन्द्यां सर्वालंकारयुक्तां शशियुतमकुटां श्यामलांगीं कृशांगीं दुर्गां त्रायस्व स्वामिनीति त्रिभुवन जननी प्रार्थनां त्वय पार्था पालयन्ते भ्यार्थनायां भगवती शिशवः किन्त्वनन्या जनन्याः ततुभ्यं स्यान्यमस्येत्यवनत् विबुधालादिविच्छा विसर्गां दुर्गां एतं सन्तः पठन्तु स्तवमखिल विपज्जालतुलानलाभं हिन्मोहध्वान्तभानुप्रथितमखिल संकल्पकल्पद्रुकल्पं दौर्गं दौर्गत्य घोरातपतु हिनकर प्रख्यं महो गजेन्द्र श्रीविपच्चास्य देश्यं विपुलभयदकालाहितार्च प्रभावम् दुर्गां देवीं शरणमहं प्रपदये